इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम्। प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। प्रधानमन्त्री नरेन्द्रमोदी अद्य 25,000,000 महाकुम्भमेला इत्यस्मात् पूर्वं प्रयागराजे आधारभूतसंरचनानां सुदृढीकरणाय 55,00,000,000,000 बहुविधविकासपरियोजनानाम् उद्घाटनं करिष्यति। एतासु परियोजनासु 10 नवीनानां मार्गाणां सेतूनाञ्च तथा स्थायिघाटानां नदीतटस्य च निर्माणम् अन्तर्भवति, येन प्रयागराजे यात्रासम्पर्कं वर्धयितुं सुगमतां च वर्धयितुं निर्मिताः सन्ति। भारतं UAE च प्रौद्योगिक्याः ऊर्जायाः जनसम्बन्ध क्षेत्रं च समेत्य व्यापकनीतिकसहभागितां सुदृढं कर्तुं बलं दत्तवन्तौ। प्रधानमन्त्री नरेन्द्रमोदी ह्यः नवदिल्ल्यां संयुक्त अरब अमीरातस्य UAE देशस्य उपप्रधानमन्त्री विदेशमन्त्री च शेख अब्दुल्ला बिन जायद अल नाह्यान इत्यनेन सह चर्चां कृतवान्। श्रीमोदी क्षेत्रीय सम्पर्कस्य समृद्धेः पोषणार्थं च ऐतिहासिक परिकल्पनारूपेण भारत मध्य पूर्व यूरोप वीथेः IMEEC इत्यस्य कार्यान्वयनस्य विषये बलं दत्तवान्। भारतस्य अल्पशः विक्रय मुद्रास्फीतिः नवम्बर मासे 5.48% यावत् न्यूनं जातम्, यत् वर्तमान वित्तवर्षस्य गतमासे 6.2% यावत् न्यूनं जातम्। MOSPI इति सांख्यिकी कार्यक्रम कार्यान्वयन मन्त्रालयेन प्रकाशितस्य प्रतिवेदनानुसारि ग्रामीणक्षेत्रेषु मुद्रास्फीतिः 5.95% आसीत्, तत्रैव नगरीयक्षेत्रेषु 4.83% आसीत्। खेलो इंडिया इत्याभियानस्य शिशिरक्रीडायाः तिथयः घोषिताः सन्ति। लद्दाखस्य केन्द्रशासितक्षेत्रे आगामिवर्षे जनवरी मासस्य 23 दिनांकादारभ्य 27 दिनांकपर्यन्तं आइस हॉकी, आइस स्केटिंग इत्यादीनां हिमक्रीडानाम् आयोजनं भविष्यति। एतद्द्वितीयं वारं भविष्यति यदा केन्द्रशासिते राज्ये लद्दाखे खेलो इंडिया इत्यस्याः शीतकालिकक्रीडायाः आयोजनं भविष्यति। 24,000,000 संस्करणात् पूर्वं जम्मूकश्मीरे एव सर्वासां क्रीडानाम् आयोजनं भवति स्म। भारतीय ग्रैंडमास्टर इति चतुरङ्गक्रीडकः डोमाराजु कुकेशः ह्यः विश्वस्य कनिष्ठतमः चतुरङ्गविजेता अभवत्। गुकेशः इतिहासं विरचितवान्। सः सिंगापुरे FIDE इति विश्वचतुरङ्गप्रतियोगितायाः 14वें अन्तिमे च द्वन्द्वे चीनदेशस्य डिंग लिरेन इत्येनं पराजयित्वा 18वीं विश्वचतुरङ्गप्रतियोगितायां विजयम् अवाप्तवान्। अन्तिमक्रीडायाः पञ्चमहोरापर्यन्तं बहिःकर्षन् डिंगः 55वें चालने एकां त्रुटिं कृतवान्, येन कारणेन सः पराजितवान्। भारतस्य 18वर्षीयः विलक्षणः क्रीडकः 7.5 अंकं प्राप्य स्वीयस्थानं संरक्षितवान्। तत्रैव चीनदेशस्य क्रीडकः डिंगः प्रतियोगितायां 6.5 अंकं प्राप्तवान्। कुल 14 मेलनेषु गोकेशः 3 क्रीडासु विजयं प्राप्तवान्। डिंगद्वयोः द्वन्द्वयोः सफलः अभवत्। शेषं 9 मेलनानि समानानि अभवन्। भारतीय ग्रैंडमास्टर क्रीडकः प्रतिद्वन्द्विनां डिंग इत्यनेन सह हस्तमेलनावधौ भावुकः आसीत्। गुकेशः 4वारं उपाधिं प्राप्तवान्। विश्वनाथ आनन्दस्य पश्चात् भारतस्य द्वितीयः विश्वविजेता अस्ति। विश्वनाथ आनन्द गुकेशस्य उपलब्धेः अभिनन्दनं कृतवान्। तत्रैव राष्ट्रपति द्रौपदी मुर्मू अपि अभिवादनं कृतवती। एकस्मिन् सामाजिक